इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याम् अंगोलादेशीयेन राष्ट्रपतिना जुआवा मैनुअल गोंकाल्वेस लरोंको इत्यमुना साकं प्रतिनिधिमण्डलस्तरीयां वार्तां समाचरिष्यति। उभयोः देशयोर्मध्ये विविधेषु क्षेत्रेषु द्विपक्षीयं सहकार्यं संवर्धयितुम् अनेकेषु सन्धिपत्रेषु हस्ताक्षरस्य सम्भावना दरीदृश्यते। अंगोलादेशस्य राष्ट्रपतिः ह्यः त्रिदिवसीय भारत यात्रायां नवदिल्लीं प्रत्यागतवान्। तस्य च विशिष्टं स्वागतं विमानपत्तनस्थानके विदेशराज्यमन्त्रिणा कीर्तिवर्धनसिंहेन कृतम्। तेन सह एकमुच्चस्तरीय प्रतिनिधिमण्डलमपि समागतम्, यस्मिन् अनेके मन्त्रिणः, वरिष्ठाधिकारिणः, सञ्चारसमूहाश्च सन्निहिताः वर्तन्ते। राष्ट्रपतेः लोरेंको इत्येतस्य अद्य राष्ट्रपतिभवनस्य प्रांगणे औपचारिकं स्वागतं समनुष्ठास्यते। तत्र असौ राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया साकं चर्चां विधास्यति। राष्ट्रपतिः मुर्मुः अतिथिगणमान्यस्य स्वागतार्थं भोजनस्यापि आयोजनं करिष्यति। सामुदायिक रेडियो इत्येतस्मिन् आधारितं राष्ट्रिय सम्मेलनम् अद्य मुम्बय्यां प्रचल्यमाने वर्ल्ड ऑडियो विजुअल एण्ड एण्टरटेनमेण्ट समिट वेब्स इत्याख्ये विश्व श्रव्य दृश्य मनोरञ्जन शिखर सम्मेलने तृतीय दिवसे आयोजयिष्यते। एतस्मिन् कार्यक्रमे प्रकल्पितः विचार विमर्शः नवीनतम प्रवृत्तिषु नीतिषु कार्यक्रमेषु च केन्द्रितो भविष्यतीति। यस्य प्रयोजनं व्यक्तेः शक्तीकरणं स्थानीय समुदायेन साकं अधिकप्रभाविरूपेण संवादक्षमतायाः संवर्धनमिति प्रतिपादितम्। एतदतिरिच्य सूचना प्रसारण राज्यमन्त्री एल मुरुगन इत्ययम् अद्य एतस्मिन् शिखर सम्मेलने भारतस्य सजव कार्यक्रमागतार्थव्यवस्था एका कार्यनीतिक विकास अनिवार्यता इत्येतं शीर्षकाधारितं श्वेतपत्रमपि प्रस्तोष्यति। श्वेतपत्रेतस्मिन् भारतस्य मनोरञ्जनोद्योगस्य विस्तृतं विश्लेषणमपि प्रस्तूयते। केन्द्रीय गृहमन्त्री अमितशाहः अभिव्यक्तवान् यत् स्वापक नियन्त्रण विभागस्य अमृतसर मण्डल विभागेन चतुर्षु राज्येषु प्रचालितानां चतुर्णां मासानाम् अभियानावधौ मादक द्रव्याणां संग्रहणं विनिष्टीकृतम्, येषु सप्तचत्वारिंशदधिक पञ्चशतकोटि रूप्यकाणां मादक द्रव्याणि अधिगृहीतानि, अपरत्र पञ्चदश जनाः गृहीताः। एकस्मिन् सामाजिक सन्देश पटले श्रीशाहः स्वापक नियन्त्रण विभागाय वर्धापनानि प्रदत्तवान्, उक्तवान् च यत् भारतं मादक द्रव्याणां समूहानां कठोराक्रमणेन दमनं कुर्वदस्ति। मुम्बई नगरे 25,000+ विश्व श्रव्य दृश्य मनोरंजन शिखर सम्मेलने वेब्स इत्येतस्मिन् शिखर सम्मेलने क्रिएटिंग इंडिया चैलेंज सीआईसी इत्येतस्य प्रथमं सत्रं ह्यः सम्पन्नम्। सीआईसी इत्येतस्य अन्तर्गतस्य 32 भिन्न प्रतिसन्धीनां विजेतारः सम्मेलनावधौ सम्मानिताः। एनिमेशन, वीडियो गेम्स, सिनेमेटोग्राफी इत्येतेभ्यः क्षेत्रेभ्यः एआई संगीत प्राविधिक पर्यन्तं संचार मनोरञ्जनोद्योगयोः सर्वाणि क्षेत्राणि सम्मिलितानि सन्ति। चैलेंज इत्येतस्य कृते 100,000+ जनाः पञ्जीकृताः आसन्, यत्र 60+ अन्ताराष्ट्रिय सहभागित्वेन आसन्। चैलेंज इतिदम् उदयोन्मुख प्रतिभाभ्यः वैश्विक मञ्चं प्रददात् तथा च युव मनस्सुकानां जीवन्त सृजनात्मकं प्रादर्शयत्। अस्मिन्नवसरे केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः एतत् ऐतिहासिकं क्षणम् इति उक्तवान्। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायां गतरात्रौ अहमदाबाद नगरे गुजरात टाइटन्स दलेन सनराइजर्स हैदराबादलम् 38 धावनांकैः पराजितम्। तत्रैव अद्य रॉयल चैलेंजर्स बैंगलुरु दलं चेन्नई सुपर किंग्स दलेन समं क्रीडिष्यते। क्रीडेशा सायंकाले 7:30 क्रीडिष्यते इति वार्ताः।